एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। अद्य सप्तदश गणतन्त्र दिवसः। नेपाले संघीय गणतन्त्र घोषणायाः अद्य षोडश वर्षाणि व्यतीतानि सन्ति। षोडश वर्षेभ्य पूर्वं पञ्चषष्ट्युत्तर द्विसहस्रतम वैक्रमादस्य ज्येष्ठ मासस्य पञ्चदश दिवसे उपवेशेन प्रथमायाः संविधानसभायाः प्रथमोपवेशेन नेपाले औपचारिक रूपेण गणतन्त्रस्य घोषणा विहिता आसीत्। तस्यैव संस्मरणे अद्य नेपाले सप्तदश गणतन्त्र दिवसः समाद्रियमाणो वर्तते। द्विसहस्रतम वैक्रमादस्य जनान्दोलनस्य आधारभूमौ गणतन्त्र घोषणायाः ऐतिहासिक दिवसस्य संस्मरणपूर्वकं प्रतिवर्ष ज्येष्ठ मासस्य पञ्चदश दिवसः आराष्ट्रं विविधै कार्यक्रमैः समाद्रीयते। गणतन्त्र दिवसस्य अवसरे राष्ट्रपतिना रामचन्द्र पौडेलेन विज्ञप्तिं प्रकाश्य सर्वेभ्यो नेपाली जनेभ्यो गणतन्त्र दिवसस्य शुभकामना प्रदत्ता अस्ति। शुभकामना सन्देशे गणतन्त्र स्थापनार्थं अभिहिते आन्दोलने हुतात्मभ्य श्रद्धाञ्जलिं प्रकटयता राष्ट्रपतिना पौडेलेन गणतन्त्र स्थापनाय विहितान्दोलनानां राजनीतिक दलानां नेतृणां नेपाल नागरिकाणां च योगदानस्य प्रशंसा विहिता अस्ति। एवमेव उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन च गणतन्त्र दिवसस्य अवसरे शुभकामना प्रदत्ता अस्ति। गणतन्त्र स्थापनाय विहितेष् आन्दोलनेष् त्यक्त जीवनान् हुतात्मनः संस्मरन् उपराष्ट्रपतिः यादवः गणतन्त्रं नेपाल जनानां सुखाय शान्तये समृद्धये च महत्वपूर्णं भवतीति उक्त अस्ति। सन्देशे प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्डः नेपाली जनतायाः आर्थिकं सामाजिकं सांस्कृतिकं च रूपान्तरणं संघीय लोकतान्त्रिक गणतन्त्रस्य अभीष्टं वर्तते इत्युक्तवान् अस्ति। प्रधानमन्त्री प्रचण्डः गणतन्त्रस्य विकल्पः उन्नतं गणतन्त्रं वर्तते इति भाषमाणः नेपाली समाजस्य अनुकूलं गणतन्त्रं स्थापितम् अस्ति इति प्रावोचत्। प्रधानमन्त्री प्रचण्डः संघीयतायाः समावेशितायाः समानुपातिक प्रतिनिधित्वस्य च सिद्धान्तः अंगीकृतोऽस्तीति तर्कयन् संविधानस्य व्यवस्थायाश्च अनुरूपं गणतान्त्रिक व्यवस्थायाः अभीष्टं पूरयितुं जनतायाः जीवनेन व्यवहारेण च सह संयोज्य अग्रे नेतुं बलं प्रादात्। गणतन्त्र दिवसस्य अवसरे सभामुख देवराज घिमिरे, राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दाहालः, नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा, पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी, मन्त्री परिषदः पूर्वाध्यक्षः खिलराज रेग्मी चेत्यादिभिः विशिष्टजनैरपि शुभकामना सन्देशाः प्रदत्ताः वर्तन्ते। गणतन्त्र दिवसस्य अवसरे गणतन्त्र दिवस मूल समारोह समित्या काष्ठमण्डपस्य टुडीखेलवर्तिनी सैनिक मञ्चे अद्य विशेष समारोह समायोज्यते। समारोहस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणं विधीयते। सर्वकारेण आगामिनः आर्थिक वर्षस्य आयव्ययकम् अद्य संसदि प्रस्तूयते। अद्य दिवा एकवादने संघीय संसदः संयुक्तोपवेशे आगामिनः आर्थिक वर्षस्य कृते आनुमानिक वार्षिकायव्यय विवरणस्य प्रस्तुतेः कार्यसूची वर्तते। राष्ट्रिय योजना आयोगस्य निर्देशनस्य अनुसारेण आसन्नाष्टादश खर्वाणां परिधौ एव आनुमानिकायव्ययकं प्रस्तूयमानमस्ति इति अर्थ मन्त्रालयेन ज्ञापितं वर्तते। अर्थ मन्त्रालयस्य अनुसारेण आयव्ययकेन वृत्त्युपार्जन कृषि पर्यटन उद्योग क्षेत्राणि विशेषतया सम्बोधयिष्यते। मानपुन इत्यनेन प्रस्तूयमानस्य वार्षिकायव्यय विवरणस्य रेडियो नेपालेन प्रत्यक्ष प्रसारणं विधीयते। सहकारी वित्तापचलनस्य प्रकरणे संसदीयानुसन्धान समितेः संघटनस्य कार्यादेशस्य निर्धारणस्य विषये सत्तापक्षस्य प्रमुख प्रतिपक्षिणो नेपाली कांग्रेस दलस्य च मध्ये सम्भूतं विमर्शनं विना निष्कर्षं सम्पन्नमस्ति। बालुवाटार वर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टे उपवेशे सहकारी प्रकरणे संसदीयानुसन्धान समितेः कार्यादेशस्य विषय निश्चेतुं न शक्त इति नेपाली कांग्रेस दलस्य सहमहामन्त्री जीवन परियार ज्ञापयत्। विरोधस्य अन्ताय प्रधानमन्त्री प्रयासरतः सन्नपि समितेः कार्यादेशस्य विषये कांग्रेस दलस्य प्रस्तावे सत्तागठबन्धनस्य अन्यानां दलानाम् अनुकूलानाम् अभावेन सहमतिं धर्तुम् अशक्तम् अभूदिति सहमहामन्त्री परियार न्यश्चिनोत्। कांग्रेस दलेन सह विमर्शनस्य पश्चात् नेकपा एमाले दलस्य उपाध्यक्षः विष्णु पौडेलः कांग्रेस दलं कथं विधाय अपि सहमतेः पक्षे नास्तीति आरोपयत्। नेपाली कांग्रेस संसदीय दलस्योपवेशः अद्य वसति। अद्य प्रातः दशवादने नयाँ वानेश्वर वर्तिनी संसद भवने उपवेशो वसतीति नेपाली कांग्रेस दलेन विज्ञप्तिं प्रकाश्य ज्ञापितं वर्तते। सर्वोच्च न्यायालयस्य आदेशेन गण्डकी प्रदेशस्य मुख्यमन्त्री खगराज अधिकारी पदमुक्त जातोस्ति। मुख्यमन्त्रिण अधिकारिण नियुक्ति असंवैधानिकी वर्तते इति नेपाली कांग्रेस दलस्य संसदीय दलस्य नेत्रा सुरेन्द्र राज पाण्डेयेन पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य अन्तिमे श्रवणे न्यायाधीशस्य कुमार रेग्मीण सुनिल कुमार पोखरेलस्य च संयुक्त न्यायपीठेन अधिकारिण पदमुक्ते निर्णय श्रावितो वर्तते। न्यायालयेन संविधानस्य अष्टषष्ट्युत्तर शततम्या धाराया तृतीयो पधाराया अनुसारेण गण्डकी प्रदेश सभायां विपुलतमस्य नेपाली कांग्रेस दलस्य संसदीय दलस्य नेतारं सुरेन्द्र पाण्डेयं मुख्यमन्त्री पदे नियोक्तुं परमादेश प्रदत्तो वर्तते। मधेश प्रदेशस्य मुख्यमन्त्रिणा सरोज कुमार यादवेन असैव ज्येष्ठस्य त्रयोविंशे दिवसीय प्रदेश सभाया उपवेशे विश्वासस्य मतं ग्रहीष्यमाणं वर्तते। जनकपुर धामनि ह्य पत्रकारै सह भाषमाण मुख्यमन्त्री यादव ज्येष्ठस्य एकविंशात् दिवसात् आयव्ययिकाधिवेशनं प्रारप्स्यते, त्रयोविंशे दिवसीय आत्मना विश्वासस्य मतं ग्रहीष्यते चेति असूचयत्। आत्मनस्थिति बहुमते अस्ति इति मुख्यमन्त्री यादव न्यश्चिनोत्। उपप्रधान गृहमन्त्रिणा रवि लामिछाने इत्यनेन वर्षाकालिक विपद सम्भावितानां क्षति रोद्धुं सम्भावित संकटयुत क्षेत्रेषु जनशक्ते परिचालनाय निर्दिष्टं वर्तते। वर्षाकालिक पूर्वकारेण प्रतिकारेण च सम्बद्धां एतद् विक्रमवर्षीयां कार्ययोजनाम् आधृत्य ह्य गृहमन्त्रालये विहिते विमर्शने गृहमन्त्री लामिछाने विपदः सम्भावित संकटापन्नेषु क्षेत्रेषु सूचनायाः प्रदानाय जनशक्तिं परिचालयितुम् अन्तर्गतस्य निकायान् निरदिशत्। गृहमन्त्री लामिछाने सम्भावित क्षतेः न्यूनीकरणाय अन्तरनिकाय समन्वय सहकारी निकायैः दात्री निकायैश्च मध्ये नैरन्तर्येण विमृश्य गृहमन्त्रालयस्य नेतृत्वे एकीकृत सहायता प्रणाली संस्थापनीयेति बलं प्रादात्। संघीय विषय सामान्य प्रशासन मंत्री भानुभक्त जोशी भाषते सर्वकारीय सेवा विधेयकम् आगामिनः आषाढ मासान्तं यावत् प्रस्तुतुं पूर्व कार्यं विहितमस्ति। मन्त्रालयेन ह्य आयोजितायां संघीयता लोकतन्त्रं विधेय शासनं चेति विषयिण्याम् अन्तर्क्रियायां मन्त्री जोशी सर्वकारीय कर्मचारिणां दृष्टानां समस्यानां विधेयकस्य पारितीकरणानन्तरं समाधानं भविष्यति इति अभाषत। नेकपा एकीकृत समाजवादी दलस्य सचिवालयोपवेशेन केन्द्रीय समितेः परामर्शनस्य अनुसारेण सचिवालयेन परिमार्जितं महाधिवेशन प्रस्तावम् अन्तर्गताभ्यः समितिभ्यः प्रेषयितुं निर्णीतं वर्तते। दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां दलस्य केन्द्रीय कार्यालये ह्य उपविष्टेन उपवेशेन राजनीतिकं समाजवादिनञ्च कार्यक्रमं विधानं सांगठनिकं प्रस्तावञ्च अतिरिक्तं विमृष्टुम् अन्तर्गताभ्यः समितेभ्यः प्रेषयितुं निर्णीतम् इति दलस्य उपमहासचिवः केन्द्रीय प्रचार विभाग प्रमुखश्च जगन्नाथ खतिवडा अज्ञापयत् इति समाचारः।